ॐ
अस्य श्री अर्घलार्घोत्तमः मन्त्रस्य विष्णुर्ऋषिः अनुष्टुप्छन्दः श्रीमहालक्ष्मीर्देवता श्रीजगदम्बा प्रीतये सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॐ नमः शण्डिकायै मार्कण्डेय उवाच जयन्ती मङ्गलाकाली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते जय त्वं देवि चामुण्डे जय भूतार्तिहारिणी जय सर्वजते देवि कालदात्रि नमोऽस्तु ते मधुकैटभवित्राविधातृवरदे नमः रूपं देहि जयं देहि यशो देहि त्रिशो देहि महिषासुरनिर्नाशिभक्तानां सुखदे नमः रूपं देहि जयं देहि यशो देहि त्रिशो देहि रक्तबीजवदे देवि कण्ठकुण्ठविनाशिनि रूपं देहि जयं देहि यशो देहि त्रिशो देहि शुम्भस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि रूपं देहि जयं देहि यशो देहि त्रिशो देहि वन्दितां त्रियुगे देवि सर्वसौभाग्यदायिनि रूपं देहि जयं देहि यशो देहि त्रिशो देहि अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि रूपं देहि जयं देहि यशो देहि त्रिशो देहि नवेभ्यस्तर्वदा भक्त्या शण्डिके दुरितापहे रूपं देहि जयं देहि यशो देहि त्रिशो देहि सुभद्रो भक्तिपूर्वं त्वां शण्डिके व्याधिनाशिनि रूपं देहि जयं देहि यशो देहि त्रिशो देहि शण्डिके सततं ये त्वामर्चयन्तीह भक्तितः रूपं देहि जयं देहि यशो देहि त्रिशो देहि देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् रूपं देहि जयं देहि यशो देहि त्रिशो देहि विधेहि विगतां नाशं विधेहि बलमुच्चतैः रूपं देहि जयं देहि यशो देहि त्रिशो देहि विधेहि देहि कल्याणं विधेहि परमाक्षयम् रूपं देहि जयं देहि यशो देहि त्रिशो देहि सुरासुरशिवो रत्ननिकृष्टचरणेऽङ्किते रूपं देहि जयं देहि यशो देहि त्रिशो देहि विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु रूपं देहि जयं देहि यशो देहि त्रिशो देहि प्रचण्डदैत्यदर्पघ्ने सन्त्रिके प्रणताय मे रूपं देहि जयं देहि यशो देहि त्रिशो देहि चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्वरि रूपं देहि जयं देहि यशो देहि त्रिशो देहि कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके रूपं देहि जयं देहि यशो देहि त्रिशो देहि हिमाचलमुताना च संस्तुते परमेश्वरि रूपं देहि जयं देहि यशो देहि त्रिशो देहि इन्द्राणी पतिवद्भावपूजिते परमेश्वरि रूपं देहि जयं देहि यशो देहि त्रिशो देहि देवि प्रचण्ड दौर्दण्डदैत्यदर्पविनाशिनि रूपं देहि जयं देहि यशो देहि त्रिशो देहि देवि भक्तजनोत्तामदत्तानन्दोदयेऽम्बिके रूपं देहि जयं देहि यशो देहि त्रिशो देहि पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् తారిణీ దుర్గసంసారసాగరస్య కులోద్భవా. ఇదం స్తోత్రం పఠిత్వా మహాస్తోత్రం పఠేన్నర తత్తు సప్తసతీ సంఖ్యా పరమాప్నోతి సంపదా. ఓ